राष्ट्रदेशे वसुधावकाशे ज्योतिर्मयं चन्द्रकलावतंसम् भक्तिप्रदानाय कृतावतारं तं सोमनाथं शरणं प्रपद्ये श्रीशैलशृङ्गे विविधप्रसङ्गे शेषाद्रिशृङ्गेऽपि सदा वसन्तम् तमर्जुनं मल्लिकापूर्वमेनं नमामि संसारसमुद्रसेतुम् अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहं सुरेशम् कावेरिका नर्मदयोपवित्रे समागमे सज्जनतारणाय सदैव मां धातृपुरे वसन्त ओङ्कारमीशं शिवमेकमीडे पूर्वोत्तरे पारलेकाभिधाने सदा शिवं तं गिरिजासमेतम् सुरासुराराधितपादपद्मं श्रीवैद्यनाथं सततं नमामि आमर्दसंज्ञे नगरे च रम्ये विभूषिताङ्गं विविधैच्छभोगैः सद्भुक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये सानन्दमानन्दवने वसन्त मानन्दकन्दं हतपापवृन्दम् वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये योडाकिनी शाकिनीका समाजे निषेव्यमानः पिशिताशनैश्च सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि श्रीताम्रपद्मी जलराशियोगे निबध्यसेतुं निशिबिल्वपत्रैः श्रीरामचन्द्रेण समर्चितं तं रामेश्वराख्यं सततं नमामि सिंहाद्रिपार्श्वेऽपि तटे रमन्तं गोदावरीतीरपवित्रदेशे यद्दर्शनात् पातकजातनाशः प्रजायते त्र्यम्बकमीशमीडे सिंहाद्रिपार्श्वेऽपि तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः सुरासुरैर्यक्षमहोरगाद्यैः केदारसंज्ञं शिवमीशमीडे केलापुरी रम्यशिलालयेऽस्मि प्रस्फुल्लसन्तं त्रिजगद्वरेण्यं वन्दे महोदारधरस्वभावं सदाशिवं तं भूषणेश्वराख्यम् एतानि लिङ्गानि सदैव मर्त्याः प्रतः पठन्तो मलमानसाच्च ते पुत्रपौत्रश्च धनैरुदारैः सत्कीर्तिभाजः सुखिनो भवन्ति
ఈ ద్వాదశ శివలింగములను నిరంతరము ప్రాతకాలమును స్మరించు మానవులు స్వచ్ఛమైన మనస్సు గలవారై మంచి ధనకీర్తులతో పుత్రపౌత్రులతో సుఖముననుభవింతురు. ఇది శ్రీమచ్చంకర భగవత్పాద కృతం ద్వాదశలింగ స్తోత్రం సంపూర్ణం.